ఆదే కవిం అనంత పరమాత్మ నవరసరుచిరాం నిర్మితి ఆది భారతి కవేభ్య
పృష్ఠ సంఖ్య ఏకాదశి. అలంకారస్య వాచ్యాంగకాయాం అపరాంగం ఇత్యస్య ఉదాహరణం. అక్కడ అలంకార వాచ్యస్య అంగరూపేణ తిష్టతి అపరాంగం గతం భవతి ఇత్యస్య ఉదాహరణం.
జనస్థానే భ్రాంతం కనకమృతకృష్ణా హృదధియా వచో వై దేహీతి
ప్రతిపదమస్తు ప్రలపితం
కృతాలంకాభర్తు వదన పరిపాటీ సుఘటనా మయా సంభ్రామత్వం కుటలవసుతానత్వధిగత
సమస్కారపూర్ణం ప్రతి ప్రతిజ్ఞం కశ్చన యాచకః వదన్ అస్తి రామః ఇత్యది కృతవాన్ తత్సర్వం అహమపి కృతవాన్. అతః మయా రామత్వం ప్రాప్తం అస్తి కథం విచేత జనస్థానే భ్రాంతం. రామహే కృతవాన్ తత్సర్వం ప్రథమం వదామి. రామః జనస్థానే భ్రమణం కృతవాన్. రామః అయోధ్యాతః అరణ్యం గతవాన్. తత్ర జనస్థానం ఇది ఏకం స్థానం, తత్ర సంచారం కృతవాన్ అసీత్. అతః మయాపి జనస్థానే భ్రాంతం. కథం కిమర్థం ఇది చేత కనకమృగకృష్ణాధియా. రామః కనకమృగం స్వీకర్తుం గృహీతుం సహ సర్వత్ర జనస్థానే కథం కృతవాన్. మరీచః హరిణరూపేణ ఆగతవాన్ ఆసీత్ కిల. అతః తస్య అన్వేషణార్థం జనస్థానే సర్వత్రాపి రామేణ భ్రాంతం ఆసీత్. రామపరకమార్థం గృహ్ణంతు ఇదని రామేణ కనకమృగస్య అన్వేషణార్థం జనస్థానే భ్రాంతం ఆసీత్. అనంతరం వచో వైదేహీ ప్రతిపదం అశ్రు ప్రలపితం. రావణ ఆగత్య సీతాం అపవచ్చేనీతవాన్. తదా రామ వైదేహీ వైదేహీ ఇది వచః పునః పునః ప్రలపం నాసీత్. ఇదం సాశ్రు అశ్రుసహితం వైదేహీ ఇది వచః ప్రతిపదం రామ ప్రలపితవాన్ ఆసీత్. తత్కృతం ఆసీత్. అనంతరం కృతాలంకాభర్తు వదన పరిపాటి ఘటన. లంకాభర్తు లంకాయా స్వామిన రావణస్య వదన పరిపాటి తముఖావలి ఉదానా పంక్తి తత్ర రామేణ ఘటనా నామ బాణస్య లక్ష్యబంధనం తత్ర కృతం ఆసీత్. రావణం ఉద్దేశ్య ప్రహారం కర్తమాన కల్పన ఎత్ర సర్వం కృతం ఆసీత్. స్థరసంధానం కృతమాసీత్. ఏవం రామః యద్యత్ కృతవాన్ ఆసీత్ తత్సర్వం మయా కృతం. అతః మయా తు రామత్వం ప్రాప్తం. అహం కథం కృతవాన్ ఇది అనంతరం వదామి. రామత్వం ఇత్యుక్తే రామః యద్యత్ కార్యం కృతవాన్ ఆసీత్ తత్సర్వం కార్యం అహమపి కృతవాన్ ఇది కృత్వా మయా రామత్వం ప్రాప్తం. కింటు కుశలవసుత నతు అధిగత. కుశలవయో సుత సీతా. సీత న అధిగత. రామేణ తు అంతతో గత్వా సీతా అధిగత ఆసీత్. రావణస్య మారణానంతరం రామః సీతాం ప్రాప్తవాన్ ఆసీత్. మయా కుశలవసుత న అధిగత కథం ఇది ప్రశ్నః భవతి. ద్వితీయ మయా జనస్థానే భ్రాంతం. జనాః యత్ర యత్ర తిష్టంతి తద్ తద్ స్థానం గత్వా జనానాం స్థానే మయా తు భ్రాంతం భ్రమణం కృతం. కిమర్థం ఇది చే కనకమృగకృష్ణాహృతధియా. ధనమేవ ఏకః మృగః. ధనరూపస్య మృగస్య అన్వేషణాయ అహం జనానాం సమీపం గత్వా గత్వా అటితవాన్. కుతః ధనం లభ్యతే ఇది ధనసంగ్రహణార్థం జనానాం సమీపం గత్వా గత్వా అటితవాన్. అతః మయాపి జనస్థానే భ్రాంతం కనకమృగకృష్ణాహృతధియా. అనంతరం వచో వైదేహీ ప్రతిపదం అశ్రు ప్రలపితం. రామేణ ప్రతిపదం వైదేహీ. వైదేహీ నామ విదేహరాజస్య పుత్రి సీతా వైదేహీ. తస్యాః సంబోధనం వైదేహీ ఇది. అత వైదేహీ వైదేహీ ఇది రామేణ ప్రలపదం కృతమాసీత్. మయాపి వచః ఉక్తం కిమితి వై దేహీ 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 ఇది వచనం మయా. తత్ర తో వైదేహీ अत्र तु वै इति एकम् अव्ययं तावदेव सेपरेट् वचो वै देहि देहि इति वचनं देहि नाम ददातु इत्यर्थे कृष्णशब्दप्रयोगे चेत् देहि इति उच्यते देहि देहि इति प्रतिपदम् अस्तुसहितं मया प्रवृत्तम् ज्ञातकः दुःखितः क्रोधं कुर्वन् देहि देहि इति वदति तद्वत् मया
प्रलसितं प्रलसितं
भवेत् प्रलसितं न प्रलसितं भवति अनन्तरं कृतालङ्काभर्तुः वदनपरिपाटी घटना कृता अलं काभर्तुः वदनपरिपाटी भर्ता सज्जनः स्वामिना का भर्ता का भर्ता नाम सुस्थितः भर्ता यः यजमानः भवति सर्वेपि यजमानाः स्वामिनः सत्पुरुषाः भवन्ति इति न धनस्य निमित्तं दुष्टः अपि यजमानः सेवनीयः भवति अतः का भर्तुः वदनपरिपाटी तस्य मुखस्य विषये मया दृष्टिबन्धनं कृतम् इत्युक्ते दुष्टस्यापि यजमानस्य पुरतः मया दृष्टिप्रसारः कृतः अस्ति कथं कृता अलं पर्याप्तं यथा भवेत् कृता अलं कावर्तुः वदनपरिपाटी इति कृतना ये कावर्तारः सन्ति तेषां पुरतः अपि मया पुनः पुनः दृष्टिक्षेपः कृतः अस्ति अलं पर्याप्तं यावत् भवेत् एवं सर्वं कृत्वा मया रामत्वम् आप्तम् इत्युक्ते रामेण तुल्यत्वं मया प्राप्तं किन्तु रामेण कुशलवसुता प्राप्ता अस्ति कुशलवसुता नाम आमां कुशलौ सुतौ यस्याः सा कुशलवसुता सीता रामेण न प्राप्ता मयापि कुशलवसुता न प्राप्ता अत्र कुशलवसुता शब्दद्वये कुशलः नाम उत्तमः वसुता वसु नाम सम्पत् वसोः भावः वसुता कुशलवसुता समीचीनधनत्वम् इति एतद् मया न प्राप्तं रामेण कुशलवसुता न प्राप्ता मया कुशलवसुता न प्राप्ता एवं बहु चमत्कारतया अर्थद्वयम् अत्र सङ्गमन्य कविः लिखितवान् मया रामत्वम् आप्तं मया आत्तम् इत्यस्य मया आत्तं नाम आप्तं प्राप्तम् इति मयाक्तं रामत्वं कुशलवसुता तु न अधिगत अत्र शब्दशक्तिमूल अनुरणनरूपः रामेण सह उपमानोपमेयभावः अस्ति सः उपमानोपमेयभावः अस्ति सः अलङ्कारः एव सः वाच्यतां साक्षात् वाच्यः एवं व्यङ्ग्यरूपे उक्तं चेत् ध्वनिकारो भवति एतद् साक्षात् पठनसमये एव ओ एवं चमत्कृतिरस्ति इति अस्माभिः न अनुभूयते वाच्यते अग्रे वस्तुनः वाच्याङ्गतायाम् अपराङ्गम् इदानीं निमित्तम् अलङ्कारस्य अङ्गत्वम् उक्तमासीत् इदानीं वस्तुनः अङ्गत्वम् आगत्य सम्प्रति वियोगवितं स्थूलाङ्गीम्
आगत्य सम्प्रति वियोगवितं स्थूलाङ्गीम्
अम्बोजिनीं क्वचिदपि क्षपितप्रियामः
अम्बोजिनीं क्वचिदपि क्षपितप्रियामः
एतां प्रसादयति पश्य शनैः प्रभाते
एतां प्रसादयति पश्य शनैः प्रभाते
सन्वङ्गिपादपतनेन सहस्ररश्मिः
सन्वङ्गिपादपतनेन सहस्ररश्मिः
एषः सूर्यदेवः रात्रिम् अन्यत्र कुत्रापि यापितवान् अत्र वयं यत्र स्मः अत्र इदानीं रात्रिः कृते सूर्यः नास्ति रात्रौ सूर्यः कुत्र आसीत् अन्यस्मिन् देशे कुत्रापि अमेरिकामध्ये एव कुत्रापि आसीत् अन्यत्र सः रात्रिं यापितवान् अस्ति एवं क्षपितस्त्रियामः क्षपिता क्षपितस्त्रियामा येन सह क्षपितस्त्रियामः कडदरात्रिं लभनु शब्दक्रियामः कः सहस्ररश्मिः सूर्यः सहस्ररश्मिः सूर्यः अन्यत्र कुत्रचित् क्षपितक्रियामः क्रियामां क्षपयित्वा आगतवान् अस्ति तादृशः इदानीमागत्य कुत्र अम्बोजिनी कमलिनी तस्याः समीपमागत्य कमलिनी कमलरमेव अत्र कमलमिदस्ति तस्याः समीपमागत्य सा वियोगवितं स्थूलाङ्गीं वियोगेन तस्याः अङ्गानि सर्वाणि अपि कृशानि जातानि सन्ति तादृशं वियोगविसंस्थूनानि अम्बोजिनीम् आगत्य तस्याः समीपम् आगत्य इदानीं तदा प्रभाते प्रातःकाले आगत्य शनैः तां प्रसादयति तस्याः कोपः यथा अपगच्छेत् तथा सः त्यागवचनैः तस्याः सन्तोषं जातम् अस्ति हे कन्वन्ये पादपतनेन सूर्यकिरणः आगत्य कमलिन्याः पादयोस्समीपे निवर्तते अतः कश्चन एतत् दृष्ट्वा वदन् अस्ति सूर्यः रात्रौ अनेन कुत्रापि यापितवान् आसीत् अतः कमलिन्याः कोपः आगतः आसीत् तदर्थं सूर्यः इदानीम् आगत्य क्षमस्वा इति वदन् तस्याः पादपतनं कृत्वा प्रसादनं कुर्वन् अस्ति इति वदन्ति अत्र नायक उत्तान्तः कश्चन अवगम्यते नायकः अन्यत्र कुत्रापि रात्रिं यापयित्वा आगतवान् अस्ति इदानीं पादौ स्पृष्ट्वा क्षमां याचमानः नायक उत्तान्तः अर्थशक्तिमूलः वस्तुरूपार्थः निरपेक्ष रविकमलिनी वृत्तान्त अध्यारोपेण एव इति सः अत्र नायकवृत्तान्तरूप अर्थशक्तिमूलवादवस्तुरूपौ अप्रासङ्गिकवाद कविकमलगळ वृत्तान्त रविकमलगळ वृत्तान्तदिन्द आरोपितवादिते इत्युक्ते रविः कमलिनी अनयोः अन्योपि कश्चन वृत्तान्तः अस्ति तस्य आरोपणम् अत्र भवति एतेन वस्तुना अन्यस्यापि आरोपणम् अत्र भवति वस्तुरूपः निरपेक्ष नाम अप्रासङ्गिकम् अप्रासङ्गिकस्य रविकमलिनी वृत्तान्तस्यापि आरोपणम् अत्र भवति अग्रे पृष्ठसङ्ख्या विंशतितमी वाच्यसिद्ध्यङ्गम् इति अग्रे अग्रे वाच्यसिद्ध्यङ्गम् इत्यस्य भ्रमिमरतिं
भ्रमिमरतिम्
अलतहृदयताम्
अलतहृदयताम्
प्रलयं मूर्च्छाम्
प्रलयं मूर्च्छाम्
समशरीरसादम् मरणं च जलद भुजगजम्
मरणञ्च जलदभुजगजम्
प्रतस्य
कुरुते
विषं
योगिनीनां
वियोगिन्यः विरहिण्यः याः सन्ति तासां निमित्तं विषं किं करोति इति चेत् विषं नाम किम् इति चेत् जलदभुजगजं विषं जलः नाम
मेघः
मेघः एव कश्चन भुजगः भुजगः
सर्प
मेघः एव कश्चन सर्पः अस्ति तस्मात् सर्पात् जायते यद्विषं तत् जलदभुजगजं विषं मेघरूपस्य सर्पस्य मुखे वा शरीरे वा यद्विषम् उत्पद्यते तत् विषं नाम मेघकारणतः उत्पद्यमानं विषं यदस्ति तत् किं जनयति इत्युक्ते भ्रमिं जनयति भ्रमि भ्रमणं शिरोभ्रमणम् इत्यादि भ्रमिं जनयति वस्तुतः सामान्यविषपानेन यद्यद्भवति तदेव भवति विषं किं करोति इति चेत् भ्रमिं जनयति अनन्तरम् अरतिं जनयति कुत्रापि रतिः नास्ति इच्छा एव नास्ति तथा अरतिं जनयति अनन्तरम् अलसहृदयतां विषप्राशनं भवति चेत् सर्वत्रापि आलस्य भवति आलस्य अतः अलसहृदयतां भवति अनन्तरं प्रलयः भवति प्रलयः नाम ई अन्ते सर्वं जलेन आप्लावितं भवति सः प्रलयः न अस्माकम् अवस्थाः सन्ति विरहावस्थायां प्रलयः इत्यपि एकः अवस्था विशेषः अतः प्रलयम् अनन्तरं मूर्ध्नाम् अनन्तरं तमः सर्वत्र किमपि न दृश्यते तादृशं तमः तादृशं शरीरसादम् अङ्गानि सर्वाणि सीदन्ति निपतन्ति तथा शरीरसादम् अनन्तरं मरणं च जनयति अत्रापि मरणं नाम मरणम् इत्यपि एका व्यवस्था अवस्था मरणं नाम प्राणाः गताः इत्यर्थः न मरणपुञ्ज एका अवस्था भवति मरणं च प्रसक्य कुरुते प्रसक्य नाम बलात् करोति बलात् करोति कः करोति इति चेत् विषम् एवं सर्वं करोति तासाम् इति चेत् विरहिणीनां योगिनीनाम् एताः अवस्थाः उपकल्पयति विषम् किं विषम् इति चेत् मेघरूपस्य भुजगस्य विषं यदस्ति तद् विषं अत्र हालाहलं व्यङ्ग्यमस्ति. वस्तुतः एतत् सर्वं कः करोति चेत् हालाहलम् इति विषमस्ति किल तद् करोति. हालाहलं व्यङ्ग्यं भुजगरूपणस्य वाच्यस्य सिद्धिः तदेव भुजगे रूपणं कृतमस्ति उपकारङ्कारः भुजगरूपणं कृतमस्ति तत्र तस्य वाच्यस्य सिद्धिम् आलाहनं करोति. आलाहनम् इति यः अर्थः अस्ति व्यङ्ग्यार्थः सः भुजगरूपस्य रूपणस्य सिद्धौ कारणं भवति. अतः वाच्यसिद्धौ तदङ्गम् भुजगरूपवाच्यार्थस्य सिद्धौ आलाहनम् इत्येतत् अङ्गत्वेन यथा एतद् वाच्यसिद्ध्यङ्गम् एकव्यक्तिकम् इति वदति इत्युक्ते एकमेव द्वयं चेत् भिन्नव्यक्तिकृतम् इति उच्यते. तत् उदाहरणं भिन्नव्यक्तिवक्तृकपदे अन्यत् उदाहरणं गच्छाम्यच्युतदर्शनेन भवता
गच्छाम्यच्युतदर्शनेन भवता किन्त्वेवं विजनस्थयोर्हतजनः सम्भावयत्यन्यथा
इत्यामन्त्रणभङ्गिसूचित
वृथावस्थानकेदालताम्
आशिष्यन् कुलकोत्तराञ्चिततनुः
आश्लिष्यन् कुलकोत्तराञ्चिततनुः
गोपीं
हरिपातु वः
काचित् गोपाङ्गना गोपकण्डिका अस्ति सा कृष्णं पश्यन्ति इति कवति आसीत् दृष्ट्वा आनन्दं वदन्ति अस्ति गच्छामि अच्युत अहं गच्छामि पर्याप्तं भवता दर्शनं कृतं गच्छाम्यच्युत अनन्तरं दर्शनेन भवता सन्तृप्त्युत्पद्यते. भवन्तं यावत् पश्यामि चेदपि तृप्तिः भवति वा इतोपि द्रष्टव्यः इतोपि द्रष्टव्यः इच्छा इच्छा भवति एव. अतः भवतां दर्शनेन तृप्तिः अनुपद्यते. अतः स्थित्वा किं प्रयोजनं भोजनं कृत्वा 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 अन्ते उदरं पूर्णमिति तृप्तिः भवति इति निश्चयः अस्ति चेत् यावदपि खादितुं शक्यते. यावत् खादितं चेत् इति पूर्णमेव भवति चेत् किमर्थं खादितुं तद्वत् हे अच्युत गच्छामि भवता दर्शनेन तृप्तिः उत्पद्यते. किं किन्तु अन्यच्च एवं निजनस्थयोः हतजनः अन्यथा सम्भवति. अन्यथा इदानीं विजनं स्थानम् अत्र अन्ये केपि न सन्ति भवानस्ति अहमस्ति द्वावेव स्वः आवावत् स्थित्वा बहुकालं स्थितवन्तो भवामश्चेत् ये दुष्टाः जनाः सन्ति किल ते किमपि चिन्तयन्ति. हतजनः इत्युक्ते दुष्टाः जनाः अन्यथा सम्भावयन्ति अतः बहुकालं मया न स्थातव्यम् इत्युक्त्वा अहमन्त्रणभङ्गिसूचित वृथावस्थानकेदाः वृथा स्थातव्यं वृथावस्थानं करणीयं तेन बहु खेदः भवति आलस्यं जायते इति वदन्ति. आमन्त्रणभङ्गिसूचितम् आमन्त्रणभङ्ग्या कृष्णस्य आलिङ्गनं सः इच्छति तदेव सूचयन्ति एवं वदन्ति अस्ति. एवं या वर्तते ताम् आश्लिष्यन् आलिङ्गनं पुलकोत्तराङ्कितसन्धुः पुलकितशरीरः पुलकितगात्रः कृष्णः वः पातु युष्मान् अत्र अच्युतादिपदव्यङ्ग्यम् आमन्त्रण इत्यादिवाक्यम् एतच्च एकत्रैकवक्तृगतत्वेन अपरत्र भिन्नवक्तृगतत्वेन इति अनयोर्भेदः. अत्र प्रथमवाक्यं यदस्ति तद् नायिका वदन्ति गच्छामिच्युतदर्शनेन भवता किञ्चित् वर्तते किन्तु एवं निजनस्य हतजनः अन्यथा सम्भाव इति वाक्यं गोपी वदन्ति अस्ति. द्वितीयं वाक्यं कः वदति एवमाश्चिष्टवान् हरिः युष्मान् रक्षतु इति तस्य वाक्यं कवेः वाक्यम् अतः द्वाभ्याम् एतद् वाक्यम् उक्तमस्ति इति एकः विषयः. तत्र अच्युतशब्दस्य न च्युतः अच्युतः इत्यर्थः अस्ति. अच्युतः कथमपि कदापि च्युतः न भवति अतः सः मामपि न त्यजति इत्यर्थः सिद्धः भवति. अहं गच्छामि इति वदति चेदपि सः न तिष्ठति, अच्युतः सः इत्यर्थः भवति. ಅಚ್ಯುತಾ ಎಂಬ ಶಬ್ದಕ್ಕೆ ಚ್ಯುತಿ ಇಲ್ಲದವನು ಎಂಬುದು ಹಿಂಗೆ ಅರ್ಥ. ಇದರಿಂದ ಅವನು ನಾಯಕಿಯೊಂದಿಗೆ ಏಕಾಂತದಲ್ಲಿದ್ದರೂ ಮನಸ್ಸನ್ನು ಬದಲಾಯಿಸುವುದಿಲ್ಲ, ಏಕಾಂತ ತಥಾಭಿವಾದವಂತಿ. ಏತಸ್ಯ ವ್ಯಂಗ್ಯಾರ್ಥವು ತಿಳಿದ ಮೇಲೆ ಗೋಪಕನ್ಯೆಯು ಅವನನ್ನು ಸೂಕ್ತವಾಗಿ ಆಮಂತ್ರಿಸಿದ್ದೇನೆ ಎಂಬ ವಾಚ್ಯಾರ್ಥದ ಮಹತ್ವವು ಅರಿವಾಗುತ್ತದೆ. ಅಚ್ಯುತಾದಿ ಪದ ವ್ಯಂಗ್ಯಂ ವ್ಯಂಗ್ಯಂ ಆಮಂತ್ರಣೇತ್ಯಾದಿ ವಾಕ್ಯ. ಸಮಸ್ಯೆ ತ ಅರ್ಥ ನ ಜ್ಞಾತ. ದ್ವಾಭ್ಯಾಂ ಉತ್ತಮ ಇತಿ ಜ್ಞಾಯತೆ. ಗೋಪ್ಯಾಹ ಏಕಂ ವಾಕ್ಯಮಸ್ತಿ, ಕವಿ ಏಕಂ ವಾಕ್ಯಮಪಿ ಅಸ್ತಿ. ಏತತ್ ವಾಚ್ಯಸಿದ್ಧೌ ಅಂಗಂ ಭವತಿ. ವಾಚ್ಯಸಿದ್ಧಿ ನಾಮ ವಾಚ್ಯಾರ್ಥಸ್ಯ ಸಿದ್ಧಿ. ತತ್ರ ಏತದ್ ಅಂಗಂ ಭವತಿ. ಅಚ್ಯುತ ಶಬ್ದಃ ವ್ಯಂಗ್ಯಾರ್ಥ. ಸಹ ಗೋಪಕನ್ಯಾ ಕಿಮರ್ಥಂ ತಂ ಆಮಂತ್ರಿತವತಿ ಇತಿ ವಾಚ್ಯಾರ್ಥಸ್ಯ ಸಿದ್ಧೌ ಸಹಾಯ ಮಾಡಿದ. ಸೊ ಇದರಲ್ಲಿ ವಾಚ್ಯಸಿದ್ಧಿ ಎಂದರೆ ಅಗ್ರಿಮಂ ಅಸ್ತಿ ಅಸ್ಫುಟ ವ್ಯಂಗ್ಯ. ಚಿತ್ರ ಅಂಗ್ಯಾರ್ಥ ಅಸ್ಫುಟ ಭವತಿ. ಕಾರಣ ಅದೃಷ್ಟೇ ದರ್ಶನೋತ್ಕಂಠ.
ಅದೃಷ್ಟೇ ದರ್ಶನೋತ್ಕಂಠ
ಏಕಂ ಸುತ್ತಾಗುತ್ತದೆ. ಬಹು ಸಮಯ ಸ್ವೀಕರಿಸಿ. ಅದೃಷ್ಟೇ ದರ್ಶನೋತ್ಕಂಠ.
ಅದೃಷ್ಟೇ ದರ್ಶನೋತ್ಕಂಠ
ದೃಷ್ಟೇ ವಿಚ್ಛೇದ ಧೀರುತ.
ದೃಷ್ಟೇ ವಿಚ್ಛೇದ ಧೀರುತ
ನಾ ದೃಷ್ಟೇನ ನ ದೃಷ್ಟೇನ
ನಾ ದೃಷ್ಟೇನ ನ ದೃಷ್ಟೇನ
ಭವತಾ ವಿದ್ಯತೆ ಸುಖಂ.
ಭವತಾ ವಿದ್ಯತೆ ಸುಖಂ
ನಾಯಕ ನಾಯಕಮುದ್ದಿಶ್ಯ ವದಂತಿ ಅಸ್ತಿ. ಅದೃಷ್ಟೇ ದರ್ಶನೋತ್ಕಂಠ ಇದಾ ಭವತಃ ದರ್ಶನಂ ನ ಭವತಿ. ಭವಾನ್ ದೂರೆ ಅಷ್ಟೇ. ಭವಾನ್ ನ ದೃಷ್ಟ ನ ದೃಷ್ಟ ನ ದೃಷ್ಟ ಇತಿ ಇತ್ಯೇವ ದರ್ಶನಸ್ತು ಉತ್ಕಂಠ ಭವತಿ. ಅದು ಉತ್ಕಂಠ ಭವತಿ ದುಃಖಂ ಇರುತ್ತಿಲ್ಲ. ಅದೃಷ್ಟೇ ದರ್ಶನ ಉತ್ಕಂಠ ಭವತಿ. ದೃಷ್ಟೇ ಯದಾ ಭವನ್ ಪುರತಃ ದೃಷ್ಟಿಗೋಚರ ಭವತಿ ತದಾ ಕದಾ ಗಚ್ಚೇ ವಿಚ್ಛೇದ ಭವೇತ್. ದೃಷ್ಟೇ ವಿಚ್ಛೇದ ದೃಷ್ಟೇ ಚೇದಪಿ ಕದಾ ವಿರೋಧ ಭವೇತ್ ಇತಿ ಪುನಃ ದುಃಖಂ. ಅತಃ ನ ಅದೃಷ್ಟೇನ ನ ದೃಷ್ಟೇನ ಭವತಃ ಸುಖಂ. ಭವಾನ್ ನ ದೃಷ್ಟಸ್ಯೇದಪಿ ಸುಖಂ ನಾಸ್ತಿ, ದೃಷ್ಟಸ್ಯೇದಪಿ ಸುಖಂ ನಾಸ್ತಿ. ಅತಃ ನ ದೃಷ್ಟೇನ ಅದೃಷ್ಟೇನ ಚ ಸುಖಂ ಭವತಃ ನ ವಿದ್ಯತೆ. ಭವತಃ ದರ್ಶನೇನಾದರೂ ಪ್ರಯೋಜನ ನಾಸ್ತಿ, ಅದರಲ್ಲಿ ಅತಃ ಅತ್ರ ಅದೃಷ್ಟ. ಅತಃ ಕಿಂ ಕರಣೀಯ ತಾತ್ಪರ್ಯಮಿತಿ ಚೇತ್ ಅದೃಷ್ಟ ಯಥಾ ನ ಭವತಿ ನ ಭವತಿ ವಿಯೋಗ ಪರ್ಯಂತ ಯಥ ನೋತ್ಪದ್ಯತೆ ಅತ್ರ. ಅತಃ ಕಿಂ ಕರಣೀಯಂ ಹಸ್ತರಿ ಕಿಂ ನ ದೃಷ್ಟಂ ಚೇದಪಿ ದುಃಖಂ. ದೃಷ್ಟಂ ಚೇದಪಿ ದುಃಖಂ ಚೇತ್ ವಸ್ತುತಃ ಕಿಂ ಭವೇತ್ ಇತಿ ಅಪೇಕ್ಷಾ ಇತಿ ಚೇತ್ ಯಥ ಅದೃಷ್ಟ ನ ಭವತಿ ಇತ್ಯುಕ್ತೆ ದೃಷ್ಟಿಗೋಚರ ಭವೇತ್ ಇತ್ಯರ್ಥ. ಕಿಂತು ವಿಯೋಗ ಭಯಂಚ ನೋತ್ಪದ್ಯತ ದೃಷ್ಟಿಗೋಚರ ಭವೇತ್ ಪುನಃ ವಿಯೋಗ ನ ಭವೇತ್ ಇತಿ ಅರ್ಥ ಅಸ್ತಿ ಇಲ್ಲ. ಸತ್ಯ ಕಲ್ಪನೆ ಇದಕ್ಕೆ ತು ಕ್ಲಿಷ್ಟ ಪ್ರಶ್ನೆಯ ತತ್ ಅರ್ಥ ಅಸ್ತಿ ಇತ್ಯುಕ್ತೆ ಭವತಃ ದರ್ಶನೇನಾಪಿ ದುಃಖಂ ಅದರ್ಶನೇನಾಪಿ ದುಃಖಂ ಇತಿ ವದಾಮಿ ಚೇತ್ ತರ್ಹಿ ಕಿಂ ವಕ್ತುಂ ಇಚ್ಛತಿ ಏಷ. ತದೇ ಅನುಜ್ಞಾಯ. ಅಥವಾ ತತ್ರ ಕಿಂ ಅವಗಂತವ್ಯಂ ಭವತಃ ದರ್ಶನಂ ಭವೇತ್ ಕಿಂತು ದರ್ಶನ ವಿಚ್ಛೇದ ಭವೇತ್ ಇತಿ ತಾತ್ಪರ್ಯ ಇದು ಪ್ರಶ್ನೆಯ ಅಸ್ಫುಟವೆಂದು ಸುಲಭಮಸ್ತಿ ರಾಜ್ಯ ಅಸ್ಫುಟವೆಂದು ವಿಚಾರ. ಅಂದರೆ ಸಂದಿಗ್ಧ ಪ್ರಾಧಾನ್ಯ ಬಿಂಗೆ ಹೇಳ್ತ ಹರಸ್ತು ಕಿಂಚಿತ್ ಪರಿಲುಪ್ತ ಧೈರ್ಯ.
ಹರಸ್ತು ಕಿಂಚಿತ್ ಪರಿಲುಪ್ತ ಧೈರ್ಯ
ಚಂದ್ರೋದಯಾರಂಭ ಇವಾಂ ಭುರಾಟಿ.
ಚಂದ್ರೋದಯಾರಂಭ ಇವಾಂ ಭುರಾಟಿ
ಮಾಮುಖೆ ಬಿಂಬಫಲಾಧರೋಷ್ಠೆ.
ಮಾಮುಖೆ ಬಿಂಬಫಲೋಧರೋಷ್ಠೆ
ಬಿಂಬಫಲಾಧರೋಷ್ಠೆ ಫಲಾಧರೋಷ್ಠೆ ಉಮಾಮುಖೆ ಬಿಂಬಫಲಾಧರೋಷ್ಠೆ
ಉಮಾಮುಖೆ ಬಿಂಬಫಲಾಧರೋಷ್ಠೆ
ವ್ಯಾಪಾರಯ ಮಾತ ವಿಲೋಚನಾನಿ.
ವ್ಯಾಪಾರಯ ಮಾತ ವಿಲೋಚನಾನಿ
ಕುಮಾರ ಸಂಭವಕ್ಕೆ ತಗೊಂಡಿದ್ದೆ ಕಾರ್ಯಕ್ರಮ. ಪಾರ್ವತಿ ತಪಃ ಆಚರಂತಿ ಆಸೀತ್ ಈಶ್ವರ ತಪಃ ಆಚರಣ ಆಸೀತ್. पार्वती तत्र परिचर्यां कर्तुं गतवति तदा मन्मथः ईश्वरस्य उपरि बाणप्रयोगं कृतवान् तस्य वर्णनं वसन्तकालस्य वर्णनं मधुवासवर्णनं वर्णयित्वा अनन्तरं पार्वती पुरतः आसीत् तदा ईश्वरः नेत्रे नेत्राणि व्यापारितवान् यदा मन्मथस्य बाणप्रयोगः जातः तावत्पर्यन्तम् आरः सर्वमिरित्य तपः एव करोमि इति धैर्येण उपविष्टवान् यदा मन्मथस्य बाणप्रयोगः जातः तदा तस्य किञ्चिदेव धैर्यस्थितिः जातः अतः अरस्तु किञ्चित् परियुक्तधैर्यः तस्य धैर्यलोपः भवति किञ्चित् धैर्यं नष्टमभवत् किञ्चित् परियुक्तधैर्यः कथम् इति चेत् चन्द्रोदयारम्भ इवाङ्गुराजिः चन्द्रोदय आरम्भकाले चन्द्रोदयात् पूर्वं समुद्रः क्षुभ्यति चन्द्रोदयसमये आरम्भे समुद्रः क्षुभ्यति तद्वत् चन्द्रोदयारम्भे अम्बुराशिः वा अम्बुराशिः समुद्रः अम्बुराशिः वा शिवः किञ्चित् परियुक्तधैर्यः भूत्वा जातः अनन्तरम् उमामुखे पार्वत्याः मुखे तत्रापि कुत्र इति चेत् बिम्बकलाधरोष्ठे बिम्बफलसदृशे अधरोष्ठे तस्य अधरोष्ठे विलोचनानि व्यापारयामः विलोचनानि इति बहुवचनं कथम् ईश्वरस्य त्रिनेत्राणि सन्ति त्र्यम्बकतः अतः व्यापारयामः विलोचनानि विलोचनानि प्रयुक्तवन्तः कालिदासस्य पद्यमस्ति अत्र किं परिकुम्भितुं परिकुम्भितुम् ऐच्छत् इति किं प्रतीयमानम् किं विलोचनव्यापारणं वाच्यं प्रधानम् इति सन्देहः तत्र वाच्यार्थोपि अस्ति लिङ्गार्थोपि अस्ति वाच्यार्थः कः इति चेत् विलोचनव्यापारणं व्यापारयामास विलोचनानि सन्ति किल तत्र वाच्यार्थे कवेः कर्तव्यं वा अथवा परिचिन्तितुम् ऐच्छत् इति लिङ्गार्थस्य प्राधान्यमस्ति वा इति अस्माभिः न ज्ञायते सन्दिग्धप्राधान्यं कतरस्य अर्थस्य प्राधान्यम् इति सन्दिग्धमस्ति इत्यपि तुल्यप्राधान्यमिति यथा ब्राह्मण अतिक्रमत्यागो
भवतामेव भूतये
जामदग्न्यस्तुवो मित्रम्
जामदग्न्यस्तुवो मित्रम् अन्यथा दुर्मनायते
कः प्रसङ्गः इति न ज्ञायते ब्राह्मणातिक्रमत्यागः भवतामेव भूतये कश्चन प्रायः राजा दृष्ट्वा सर्वानपि ब्राह्मणान् क्रीडयन् आसीत् अतः ब्राह्मणेषु यः अतिक्रमः क्रियते तस्य त्यागं करोति चेत् भवतां शुभं भवति ब्राह्मणानाम् अतिक्रमस्य त्यागः इत्युक्ते ब्राह्मणपीडां यत् भवन्तः कुर्वन्तः सन्ति ब्राह्मणपीडां कुर्वन्तः सन्ति तद् त्यजति चेत् उत्तमम् इति तर्तव्यं ब्राह्मणादिक्रमत्यागः भवतामेव भूतये कल्पते भवतां लाभाय कल्पते किमर्थम् इति चेत् अन्यथा ज्यामदग्न्यः वः दुर्मनायते यमदग्नेः पुत्रः ज्यामदग्नेः नाम परशुरः सः भवता विषये दुर्मनाः भवति कोपं भवति सः पुत्रो भविष्यति ज्यामलग्न्यः वः मित्रं ज्यामलग्नः अन्यथा दुर्मनायते कुतो भविष्यति अत्र राक्षसाः राक्षसाः ब्राह्मणान् क्रीडयन्तः सन्ति तस्मिन् अवसरे कथ्यमानम् अस्ति अत्र ज्यामदग्न्यः सर्वेषां क्षत्रियाणां वृक्षसां क्षयं करिष्यति इति व्यङ्ग्यस्य वाच्यस्य च सम्प्राधान्यम् इदानीमत्र एषः वाच्यार्थः कः वाच्यार्थः श्लोकस्य वाच्यार्थः ब्राह्मणातिक्रमं कुर्वन्ति चेत् यामदग्न्यः दुर्मनायते इत्येषः वाच्यार्थः व्यङ्ग्यार्थः कः इति चेत् यामदग्न्यः यथा क्षत्रियाणां विनाशं कृतवान् तथैव राक्षसानामपि नाशं करिष्यति इति व्यङ्ग्यार्थः अनयोः वाच्यार्थव्यङ्ग्यार्थयोः तुल्यप्राधान्यं समानं प्राधान्यम् पूर्वतनपद्ये प्राधान्ये पूर्वतनपद्ये सन्दिग्धप्राधान्यं किं प्रधानं किम् अप्रधानम् इति निर्णयः न भवति कदाचित् एकं किञ्चित् अधिकं किञ्चित् न्यूनं भवति प्राधान्यं तस्य निर्णयः अत्र तु दुर्लभसमानं प्राधान्यं तुल्यप्राधान्यम् కాక్షిప్త మత్స్వామి కౌరవచటం సమరేణ
గోపామి కౌరవచం సంచూర్ణయామి గదయా సంధిం కరోతు భవతాం నృపతి పణేన.
ఉద్దేశ్య నకులో వా సహదేవో వా కోపి ఆగత్య వదన్నస్తి ఇదానీం దుర్యోధనేన సహ సంధిం కర్తుం ఏషః ధర్మరాజః జనం ప్రేరితవాన్ అస్తి సంధి ప్రయత్నం కురవన్ అస్తి తదా భీమః వదన్నస్తి కురువంతు కురువంతు యది అహం కౌరవశతం న మత్స్నామి సంధిం కరోతు మత్నామి కౌరవశతం సమరేన కోపాత్ సమరే యుద్ధే కోపాతహం కౌరవశతం న మత్నామి మత్నాది నామ అంతర్వాన్ సర్వథా చూడనయాని మరయాని ఎది న మత్నామి అనంతరం దుశ్యాసనస్య రుధిరం న పివామి ఉరస్థః దుశ్యాసనస్య ఉరసి వర్తమానం ఉరస్థః రుధిరం రక్తం ఎది అహం న పివామి దుశ్యాసనస్య రుధిరం న పిబామి సంచూర్ణయామి గదయా న సుయోధనము సుయోధనస్య ఊరుద్వయమపి అహం గదయా న సంచూర్ణయామి ఏది తర్హి అహం ఉత్తమం పద్యే నాస్తి అత భీమస్య వచనం కురువంతు కురువంతు అహం శతం కౌరవాన్ న నాశయామి అహం దుశ్యాసనస్య రక్తం న పిబామి అహం దుర్యోధనస్య ఊరు న చూర్ణయామి భవంతః సంధిం కురువంతు సంధిం కరోతు భవతాం నృపతి పణేన భవతాం నృపతి దీక్షిత సంధిం కరోతు పణం కృత్వా ఎత్తు వదన్ అస్తి కిల ఎత్తు వాక్యం సర్వమపి కాక్వ కాకో నామ ధ్వని విషయ ధ్వని విషయ వదన్ అస్తి అహం నమత్నామి ఇత్యుక్తే నమత్నామి కిం ఇది ప్రశ్న అతః అత్ర మత్నామి ఇత్యాది వ్యంగ్యం వాచ్య నిషేధ సహభావేన వాచ్యార్థ యాసి తస్య నిషేధం స్వయమేవ కరోతి కాకు నమ ధ్వని విషేధ తద్ కాకున సహ విషేధార్థ కన్నడ అసుందర సుందరం అసుందర వ్యంగ్యమిరస్థితీరీన
వాణీరపుంజోడ్డీన
శకుని కోలాహలం కుంవంద్యాః
శకుని కోలాహలం కుంవంద్యాః
గృహకర్మ వ్యాప్రతాయాః
గృహకర్మ వ్యాప్రతాయాః
వద్వాహ ఈదంత్యంగాని
వద్వాహ ఈదంత్యంగాని
వాణీర పుంజ ఉడ్డీన శకుని కోలాహలం కుంవంద్యాః వాణీర నామ బెట్ట బెట్ట ఇది ప్రణవిశేష కాచిత్ జొండు హుల్లు చేసేదండి వాణీర తాదృశ కుంజం తేషామేవ నికుంజ కష్టన అస్తి తత్ర బహవ శకునయ ఉపవిష్ట శకునయ నామ పక్షిణ శకునయ బహవ ఉపవిష్ట తే కోలాహలం కృతవంత తే ఉడ్డయన సమయ కోలాహలం కురువంత తథా ఉత్సాహ గత ఇక్కడ కుత్రాపి ఏకత్ర వాణీరాణ కుంజ అస్తి సమూహ అస్తి కదాచిత్ తత్ర ఆగత్య ఉపవిష్టా కోలాహలం కుర్వంతః భవంతి శకునయః సాయంకాలే తద్ పరిత్యజ్య స్వనీడం గచ్చతి తదా గమనసమయే కోలాహలం కుర్వంతః ఏతే ఇదం ఉత్సాహ చక్రః అతః వాణీర కుంజ ఉడ్డీన తతః ఉడ్డీనాః ఏ శకునయః ఉడ్డీనాః హరిదంతః శకునయః సంతి తేషాం కోలాహలం ఏషా కాచిత్ శ్రుతవతి కా శ్రుతవతి ఇతి చేత్ గృహకర్మ వ్యాపృతా వధూః గృహే కార్యం కురవతి కాచిత్ అంగాని సర్వాణి సీదంతి సర్వాణి అంగాని కష్టమనుభవంతి ఫలితాలు ఉరుగో ముందు సూచ్యతే కిమర్థం ఇది పృచ్యతే చేత్ దత్త సంకేత కచ్చిత్ లతాగహనం ప్రవిష్ట సాయంకాల భవతి ఇది అస్మిన్ లతాగహనే మిలతోటి కచ్చిత్ దూరితవతి ఆసీత్ తత్ర ఆగతవాన్ అస్తి మనుష్య ఆగతవాన్ ఇది కృత్వా పక్షిణ సర్వేపి తథా ఉద్దీయ గతా అస్తి सहस्रम् आगतवान् एषः अतः दत्तसङ्केतः कश्चित् रसागरं प्रविष्टः इति सीदन्ति अङ्गानि वाक्यं चमत्कारम् वस्तुतः सः कश्चन आगतवान् इति अर्थस्य अपेक्षयापि अस्याः अङ्गानि सीदन्ति इति शब्दस्य प्रयोगः एव अतीव चावकरः इति अतः मध्यमकाव्यस्य एतदेव उदाहरणत्वेन दीयते यद्यपि सः आगतवान् एषः गन्तुं न शक्तः इति व्यङ्ग्यार्थस्य अपेक्षयापि तच्छृङ्गस्याः एतस्याः अङ्गानि सीदन्ति इति प्रयोगः एव अतीव चमत्कारितः अतः तद्वाच्यमेव अधिकचमत्कारकमस्ति असुन्दरव्यङ्ग्यं व्यङ्ग्यार्थः अस्ति किन्तु सः असुन्दरः ततोपि वाच्यार्थः सुन्दरः इति अन्यपाठे द्विभूतलिङ्गस्य अवान्तरभेदासक्ता सूचना इत्यादि इत्यादि स्वीकृत्य